तृतीय स्कंद
हरे कृष्ण। अथ पंचविंशोध्याय। दहुति का प्रश्न तथा भगवान कपिल द्वारा भक्ति योग की महिमा का वर्णन। शौनक उवाच, कपिलस्तत्व संख्याता भगवान आत्ममाया जातः स्वयमज साक्षात् आत्म प्रज्ञप्ते नृणाम यस्वर्ष्मण पुंसाम वरिमृ सर्व योगिनाम विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मे शव। यद्यद्विधत्ते भगवान स्वच्छन्दात्मात्ममाया तानि मे श्रद्दधानस्य कीर्तन्यानन कीर्तय। श्रुत उवाच, द्वैपायन सखस्त्वेव मैत्रेयो भगवांस्तथा त्राहेदं विदुरं प्रीता अनुच्छिक्यां प्रचोदितः। मैत्रेय उवाच, पितरि प्रस्थितेरण्यं मातुः प्रियचिकीर्षया तस्मिन् बिन्दुसरेवाचित् भगवान् कपिलः किल तमासीनम् कर्माणम् तत्तु मार्गाग्रदर्शनम् स्वसुतम् देवहूत्याः धातुः संस्मरति वचः। देवहूतिर्वाच, निर्वीणा नितरां भूमन् असदिन्द्रियतर्शनात् येन सम्भाव्यमानेन प्रपन्नान्धम् तमः प्रभो तस्य त्वम् तम् सन्धस्य दुष्पारस्याद्य पारगम् सच्चक्षुर्जन्मनामन्ते लब्धम् मे त्वदनुग्रहात्। य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल लोकस्य तम् सान्धस्य चक्षुसूर्यैवोदितः। अथ मे देव सम्मोहम् अपाक्रष्टुम् त्वमर्हसि यो वग्रहोऽहम् ममेति तस्मिन् योजितस्त्वया तम् त्वा गताहम् शरणम् शरण्यम् स्वभृत्य संसारतरः कुठारम्। जिज्ञासयाहम् प्रकृतेः पुरुषस्य नमामि सद्धर्मविदाम् वरिष्ठम्। मैत्रेय उवाच, इति स्वमातुर्निर्वद्यमीप्सितम् निशम्य पुंसामुपवर्गवर्धनम् धियाभिनन्द्यात्मवताम् सताम् गतिर्बभाषयीषत्स्मितशोभिताननः। श्रीभगवान् उवाच, योग आध्यात्मिकः पुंसाम् मतो निःश्रेयसाय मे अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च। तमिमम् ते प्रवक्ष्यामि जमुवोचम् पुरा नघे ऋषीणाम् श्रोतु कामानाम् योगम् सर्वाङ्गनैपुणम् चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् गुणेषु शक्तम् बन्धाय रतम् वा पुंसि मुक्तये। अहम् ममाभिमानोत्थये कामलोभादिभिर्मलैः वीतम् यदा मनः शुद्धम् अदुःखम् असुखम् समम् तदा पुरुषे आत्मानम् केवलम् प्रकृतेः परम् निरन्तरम् स्वयम् ज्योतिरणिमानमखण्डितम् ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना परिपश्यतु दासीनम् प्रकृतिम् च हतौजसम् न युज्यमानया भक्त्या भगवत्तखिलात्मनि सदृशस्ति शिवः पन्था योगिनाम् ब्रह्मसिद्धये प्रसङ्गमजरम् पाशमात्मनः कवयो विदुः स एव साधुसुकृतो मोक्षद्वारमपावृतम् तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् अजातशत्रवः शान्ताः साधवः साधुभूषणः। मय्यनन्येन भावेन भक्तिम् कुर्वन्ति ये दृढाम् मत्कृते त्यक्तकर्माणस्त्यक्ता स्वजनबान्धवः मदाश्रयः कथा मृष्टा शृण्वन्ति कथयन्ति च तपन्ति विविधास्तापा नैतान् मद्गच्छेत् सः। त एते साधवः साध्वी सर्वसङ्गविवर्जितः सङ्गस्ते स्वस्ते प्रार्थ्य सङ्गदोषहराहिते सताम् प्रसङ्गान् मम बीर्जसंविदो भवन्ति हृत्कर्णरसायना कथः। तज्जोषणादासपवर्गवर्त्मनि श्रद्धारतिर्भक्तिरनुक्रमिष्यति भक्त्या पुमाञ्जात् विराग ऐन्द्रिया दृष्ट सुतान्मदरचनानुचिन्तया चित्तस्य जत्तो ग्रहणे योगयुक्तो जतिष्यते ऋजुभिर्योग मार्गैः असेवयायम् प्रकृतिर्गुणानाम् ज्ञानेन वैराग्य विजृम्भितेन योगेन मय्यर्पितया च भक्त्या माम् प्रत्यगात्मानमिहावरुन्धे। देवहूतिरुवाच काचित् त्वयि उचिता भक्तिः कीदृशी मम गोचरा यया पदम् ते निर्वाणम् अञ्जसान्वाशवा अहम् यो योगो भगवद्बाणो निर्वाणात्मस्तयोदितः कीदृशः कति चाङ्गानि जतस्तत्त्वावबोधनम् तदेतन्मे बिजानीहि यथाहम् मन्दधीर्हरे सुखम् बुद्ध्यै दुर्बोधम् योषा भवदनुग्रहात्। मैत्रे उवाच विदित्वार्थम् कपिलो मातुरित्वम् जातस्नेहो यत्र तन्वाभिजातः तत्त्वाम् नायम् यत् प्रवदन्ति साङ्ख्यम् प्रोवाच वै भक्तिवितान योगम्। श्रीभगवान् उवाच देवानाम् गुणलिङ्गानाम् आनुश्रविक कर्मणाम् सत्त्व एवैकमनुष वृत्तिः स्वाभाविकी तुया अनिमित्ता भागवती भक्ति सिद्धिर्गरीयसी जरयत्यासु या कोशम् निर्गृणमनलो यथा नैकात्मता मे स्पृहयन्ति केचिन्मत्पाद सेवाभिरता मदीहा यिन्यन्यतो भागवतः प्रसज्य सभा जयन्ते मम पौरुषाणि पश्यन्ति ते मे ऋषिराण्यम् वसन्तः प्रसन्न वक्त्रारुणलोचनानि रूपाणि दिव्यानि वरप्रदानि साकम् वचम् स्पृहणीयाम् वदन्ति तैर्दर्शनीया वैरुदार विलासहासक्षितमांशक्तिः हृतात्मनो हृतप्राणाश्च भक्तिरनिच्छत मे गतिमणिम् प्रयुङ्क्ते। अथो विभूतिम् मम माया विनष्टामैश्वर्यमष्टाङ्गमनुप्रवृत्तम् श्रियम् भागवतीम् वा स्पृहयन्ति भद्राम् परस्य मे ते श्नुते तु लोके न कर्हि चिन्मत्परः शान्तरूपे नक्ष्यन्ति नोन्मे निमिषो लेढिहेतिः येषामहम् प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम्। इमम् लोकम् तथैवामम् आत्मानम् उभयायिनम् आत्मानम् ये चेह ये रायः पशवो गृहा विसृज्य सर्वानन्याश्च मामेवम् विश्वतो मुखम् भजन्त्यनन्यया भक्त्या तान् मृत्युरतिपारये। नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् आत्मनः सर्वभूतानाम् भयम् तीव्रम् निवर्तते। मद्भयाद्वाति वातोऽयम् सूर्यस्तप्ति मद्भयात् वर्षतीन्द्रो दहत्यग्निर्मृतुश्चरति मद्भयात् ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः क्षमाय पादमूलम् मे प्रविशन्ति अकुतो भयम्। एतावानेव लोकेऽस्मिन् पुंसाम् निःश्रेयसोदयः तीव्रेण भक्तियोगेन मनोमय्यर्पितम् स्थिरम्। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् तृतीयस्कन्धे कापिलोपाख्याने पञ्चविंशोऽध्यायः।